सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी स्मारयतु।
विद्यानाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्याभोगकरीयस्य सुखकरी विद्या गुरुनां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः।
धन्यवादाः। अद्य नूतनपाठः आरभ्यते। ल्यपन्तरूपाणां चिन्तनम् आरभ्यते। ल्यप् इति प्रत्ययः, ल्यप् इति प्रत्ययः भावार्थकप्रत्ययः, सर्वेभ्यः उपसर्गसहितेभ्यः धातुभ्यः, सर्वेभ्यः उपसर्गसहितेभ्यः धातुभ्यः क्त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः विहितः भवति। ल्यबन्तरूपाणि अव्ययानि भवन्ति, इत्युक्ते ल्यप् प्रत्ययस्य अन्ते अपि सुप्रत्ययः विद्यते, किन्तु अव्ययात् आप्सुपः इति सूत्रेण अव्ययशब्दस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति। अतः ल्यबन्तानि पदानि अव्ययानि भवन्ति। ल्यप् प्रत्ययस्य अनुबन्धलोपः कथं भवति? ल्यप् प्रत्यये लकारः लशक्वतधिते इति सूत्रेण इत्संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति। पकारः हलन्त्यं सूत्रेण इत्संज्ञकः भूत्वा तस्य लोपः सूत्रेण अपगच्छति। अन्ततो गत्वा ल्यप् इति प्रत्यये या अवशिष्यते। ल्यप् प्रत्ययः यकारादिप्रत्ययः, प्रत्ययः यकारादिः अस्ति चेत् आर्धधातुकस्येड्वलादेः इति सूत्रेण अनिट् प्रत्ययः भवति। आर्धधातुकस्येड्वलादेः इति सूत्रेण वल् प्रत्याहारस्थवर्णः प्रत्ययस्य आदौ अस्ति चेत् सः प्रत्ययः इडनुकूलः भवति, किन्तु अत्र ल्यप् अनुबन्धलोपे सति या इति अवशिष्यते। या इति वर्णः वल् प्रत्याहारे नास्ति, वल् प्रत्याहारे यकारं विहाय अन्यवर्णाः सन्ति। अतः ल्यप् प्रत्ययः यकारादिप्रत्ययः अस्ति इति कारणतः वलादिः नास्ति, वलादिः नास्ति इत्यतः अनिट् प्रत्ययः, इत्युक्ते ल्यप्रत्ययान्तरूपेषु इडागमः न कदापि दृश्यते। ल्यप्रत्ययः सर्वदा क्त्वा प्रत्ययस्य स्थाने आयाति खलु, क्त्वा प्रत्ययस्य स्थाने आयाति इत्यतः क्त्वा प्रत्ययस्य लक्षणानि अस्मिन् प्रत्यये अध्यारोप्यन्ते। क्त्वा प्रत्ययः कित् प्रत्ययः, क्त्वा प्रत्ययः कित् अस्ति इति कारणतः गुणनिषेधः भवति। क्त्वा प्रत्ययस्य स्थाने ल्यप् आयाति इति कारणतः ल्यप्रत्यये अपि कित्वम् अध्यारोप्यते, कित्वात् गुणनिषेधः अत्रापि दृश्यते। ल्यबन्तरूपसाधनवेलायां गुणकार्यं न भवति, अङ्गकार्यं कर्तुमिच्छामश्चेत् गुणनिषेधः भवति। उदाहरणार्थम् अनुभूय इति पदं स्वीकुर्मः चेत् अनु इति उपसर्गः अस्ति, भू धातुः अस्ति, भू धातुः ईगन्तधातुः, उपसर्गः अस्ति चेदेव क्त्वा प्रत्ययस्य स्थाने ल्यपायते खलु। अतः अनुयोगः भूयोगः ल्यप् इत्यस्यां दशायां ल्यप् प्रत्यये कित्वम् अध्यारोप्यते। अतः भू इति धातुरूपी अङ्गे गुणकार्यम् अभूत्वा अनुभूय इति रूपं सिद्ध्यति। एवमेव वियोगः लिख् इति धातुतः ल्यप् प्रत्ययस्य योजनेन विलिख्य इति रूपं भवति। लिख् धातुः इदुपधधातुः, ल्यप् प्रत्यये कित्वं साक्षात् नास्ति, किन्तु तत्र क्त्वा प्रत्ययस्य लक्षणानि ल्यप् प्रत्यये अध्यारोप्यन्ते। अतः ल्यप् प्रत्ययः अपि कित् प्रत्ययः इव कार्यं करोति, अतः तत्र गुणकार्यम् अभूत्वा विलिख्य इति रूपं सिद्ध्यति, कित्वात् गुणनिषेधः।
भगिनि, अत्र सूत्रमस्ति वा ल्यप् कित्ति वा प्रवर्तते इति?
अस्ति भगिनि, ल्यप्रत्ययान्तरूपाणां प्रसङ्गे कानिचन विशिष्टसूत्राणि सन्ति। मुख्यसूत्रमस्ति समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रेण ल्यप्रत्ययः विहितः भवति। समासे अनैपूर्वे क्त्वो ल्यप् इति सूत्रेण ल्यप्रत्ययः विहितः भवति समासे इत्युक्ते विलिख्य इति समस्तपदमस्ति अनैपूर्वे इत्युक्ते समासः स्यात् किन्तु नैसमासः न स्यात् नैसमासः अस्ति चेत् ल्यप् न आयाति यथा ज्ञात्वा इति पदमस्ति ज्ञात्वा इति क्त्वान्तरूपमस्ति नैसमासं कुर्मः चेत् अज्ञात्वा इति रूपं भवति न तु अज्ञाय अज्ञाय इति रूपम् अशुद्धं रूपम् अज्ञात्वा इति रूपमेव तत्र सिध्यति तदर्थमेव सूत्रे किमुक्तमस्ति समासे अनैपूर्वे क्त्वो ल्यप् समासः स्यात् किमर्थं समासः इति वदामः द्वयोः सुबन्तयोः मेलनेन समस्तपदनिर्माणं भवति खलु अत्र उपसर्गः अपि पदमेव उपसर्गस्यापि पदसंज्ञा अस्ति इति कारणतः समासः इति वक्तुं शक्नुमः विलिख्य विज्ञाय इत्यादीनि पदानि समस्तपदानि इति वक्तुं शक्नुमः किन्तु नैसमासः अस्ति चेत् ल्यप् न विहितः भवति क्त्वा प्रत्ययस्य स्थाने ल्यप् विहितः भवति यदा एकः एव कर्ता क्रियाद्वयं करोति चेत् पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययः भवति एवमेव एकः एव कर्ता क्रियाद्वयं करोति तर्हि पूर्वकालिकी क्रियायाः क्त्वा प्रत्ययस्य स्थाने तत्र धातोः पूर्वम् उपसर्गः अस्ति चेत् मुख्यतया तद् वक्तव्यं धातोः पूर्वम् उपसर्गः अस्ति चेत् अपि च समासः भवति चेत् क्त्वा प्रत्ययस्य स्थाने ल्यपायाति किन्तु धातोः पूर्वं निषेधार्थकपदम् इत्युक्ते आ अथवा अन् सन्ति चेत् नैसमासः भवति नैसमासः भवति चेत् ल्यप् न विहितः भवति अतः एव अज्ञात्वा अकृत्वा अपठित्वा अखादित्वा एवं वक्तव्यं भवति इदानीं वयं कानिचन रूपाणि परिशील्य कथां प्रति सरेम
क्षम्यताम् एकः प्रश्नः अस्ति तत्र निषेधार्थकम् उक्तं किल तर्हि अ अपि च अन् तावदेव किल
उत्तमं
द्वौ एव
अवधेयम् इति लिखितम् अस्ति चतुस्त्रिंशत्यधिक एकशतं पुटं पश्यन्तु 134 पेज् चतुस्त्रिंशत्यधिक एकशतं पुटं पश्यन्तु तत्र रूपाणि दत्तानि आदौ इमानि रूपाणि परिशील्य पश्चात् कथां प्रति सरेम इतोपि किं ज्ञातव्यं ल्यप्रत्ययस्य प्रसङ्गे विधिसूत्रमस्ति समासे अनैपूर्वे क्त्वो ल्यप् अपि च स्वीकृत्य सत्कृत्य अलङ्कृत्य तिरस्कृत्य साक्षात्कृत्य शुक्लीकृत्य शुक्लीभूय इत्यादीनि पदानि वयं साधारणतया शृणुमः तत्र गतिसमासः अस्ति गतिसमासस्य प्रसङ्गे अपि ल्यप् भवति इति एकः विषयः पश्यन्तु स्वीकृत्य इत्यत्र स्वी इति द्वाविंशति उपसर्गेषु अन्यतमः नास्ति स्वी इति उपसर्गतुल्यम् अस्ति किन्तु उपसर्गः नास्ति स्वीकृत्य इत्यस्मिन् पदे गतिसमासः अस्ति एवमेव अलङ्कृत्य अलम् इति पदम् उपसर्गः नास्ति अलङ्कृत्य स्वीकृत्य सत्कृत्य साक्षात्कृत्य तिरस्कृत्य शुक्लीकृत्य इत्यादिषु पदेषु उपसर्गः नास्ति चेदपि गतिसमासः अस्ति इत्यतः ल्यप् प्रत्ययः विहितः भवति अवधेयम् इत्यस्मात् आरभ्य पठेम सूर्यकुमारी भगिनी भवती पठतु
अवधेयम् उपसर्गरहितानि क्रियापदानि उपसर्गसहितानि क्रियापदानि प्रथमं गच्छति गत्वा नयति नीत्वा गृह्णाति गृहीत्वा स्मरति स्मृत्वा त्यजति त्यक्त्वा गच्छति गत्वा उपसर्गसहितानि क्रियापदानि आगच्छति आगत्य आनयति आनीय सङ्गृह्णाति सङ्गृह्य विस्मरति विस्मृत्य परित्यजति परित्यज्य अवगच्छति अवगत्य
रूपसिद्धिं वक्तुमिच्छति वा गत्वा वदतु
गच्छति लट्लकाररूपं गम् गत्वा गम् योगः त्वान्तरूपं गत्वा मकारलोपः भवति
तदेव तत्रैकं विशिष्टं सूत्रमस्ति तेन विशिष्टसूत्रेण अनुनासिकवर्णस्य लोपः भवति मकारलोपः भवति अतः गत्वा इति रूपं सिद्ध्यति किन्तु आगच्छति इत्यत्र आ इति उपसर्गः अस्ति उपसर्गः अस्ति चेदेव ल्यबन्तरूपं सिद्ध्यति खलु अतः आगत्य इति रूपं सिद्ध्यति आगत्य इत्यत्र विशेषः अस्ति विशेषः कः आगच्छति इत्यत्र आगत्य इति एकं रूपम् आयाति आगम्य इति अन्यद् रूपमपि अस्ति यद्यपि अत्र न लिखितं तथापि तद्रूपम् अस्ति एव वाल्यपि इति सूत्रमस्ति वाल्यपि इति सूत्रेण मकारान्तधातूनां प्रसङ्गे विकल्पेन मकारलोपः भवति इत्युक्ते मकारान्तधातूनां प्रसङ्गे एकस्मिन् पक्षे मकारलोपः भवति अन्यस्मिन् पक्षे मकारलोपः न भवति वाल्यपि इति सूत्रेण मकारलोपः भवति चेत् आगत्य इति रूपं मकारलोपः न भवति चेत् आगम्य इति रूपं सिद्ध्यति अग्रे वदतु नीत्वा
नीत्वा नी धातुतः लट्लकार नयति नियोगः त्वा नीत्वा लवन्तरूपं लप्रूपम् आयोगः नियोगः लप् आनीय भवति
उत्तमम् अग्रिमं पदमस्ति गृह्णाति गृह्णाति इत्यत्र धातुः अस्ति ग्रह ग्रहधातुः क्रियादिगणे अस्ति क्रियादिगणे अस्ति इति कारणतः श्ना इति विकरणप्रत्ययः आयाति नवमे गणे अस्ति क्रियादिभ्यः श्ना इति सूत्रेण श्ना विकरणप्रत्ययः आयाति ग्रहयोगः श्ना श्ना प्रत्ययः अपित् प्रत्ययः अपित् प्रत्ययः इति कारणतः नित्वम् अध्यारोप्यते नित्वम् अध्यारोप्यते चेत् कित्निति प्रत्यये परे एव सम्प्रसारणं भूत्वा ग्रहगुरुः भवति अतः गृह्णाति इति रूपं सिद्ध्यति क्त्वा प्रत्ययः अपि कित् प्रत्ययः कित् प्रत्यये परे सम्प्रसारणं भूत्वा ग्रह इत्यस्य रूपं गुरुः भवति अतः एव गृहीत्वा इति रूपं भवति इतोपि अत्र अन्यत् सूत्रं ग्रहोलटि दीर्घः इति विशिष्टसूत्रेण अत्र दीर्घत्वं दृश्यते अतः एव ग्रहधातोः क्त्वान्तरूपं गृहीत्वा सङ्गृह्य वदतु
सङ्गृह्य सम् उपसर्गतः ग्रहधातु सम्प्रसारणं भवति लेप् अध्यारोपिते भगिनि सम्प्रसारणमपि
कित् प्रत्यये परे सम्प्रसारणं भवति कित् प्रत्यये परे एव ग्रहिज्या वै व्यधि वष्टि विचति बहु दीर्घं सूत्रमस्ति तेन सूत्रेण ग्रहधातोः प्रसङ्गे सम्प्रसारणकार्यं भवति तत्र निमित्तमस्ति कित् नित्यप्रत्यये परे यद्यपि ल्यप् प्रत्ययः साक्षात् कित् नास्ति किन्तु क्त्वा प्रत्ययस्य स्थाने ल्यपायति इति कारणतः ल्यप् प्रत्यये अपि कित्वम् अध्यारोप्यते वदतु
ल्यपपि क्वा इव प्रवर्तते सम्प्रसारणं भवति सं गृह् भवति गृहयोगः ल्यप् गृह्य सङ्गृह्य रूपं भवति
अनुबन्धलोपे सति या अवशिष्यते सङ्गृह्य इति रूपं भवति अत्र अहं पूर्वम् उक्तवती यकारादिप्रत्ययः अतः इडनुकूलः नास्ति अनिट् प्रत्ययः अतः न कदापि इडागमः दृश्यते रूपेषु
त्वान्तविधि प्रवर्तते खलु
क्त्वा प्रत्ययस्य कित्वम् अध्यारोप्यते किन्तु इडागमप्रसङ्गः भिन्नः कित्वं भिन्नं तत्र भेदः अस्ति कित्वं भिन्नम् अस्ति इडागमप्रसङ्गः भिन्नः क्त्वा प्रत्ययः अनुबन्धलोपे सति तकारादिः भवति अतः सेट् प्रत्ययः अतः एव लिख् धातोः रूपं लिखित्वा किन्तु ल्यबन्तरूपमस्ति विलिख्य किं वक्तुमिच्छामि तकारादिप्रत्ययः अस्ति चेत् इडनुकूलः भवति किन्तु ल्यप् प्रत्ययः यकारादिप्रत्ययः यकारः वलि नास्ति अतः इडनुकूलः नास्ति अग्रे वदतु
स्मरति स्मृत्वा स्मृधातुतः त्वान् त्वारूपं स्मृत्वा लेबन् लेप् वियोगः स्मृयोगः लेप् सा कथम् आयाति
तत्र एकं सूत्रमस्ति ह्रस्वस्य पिति कृति तुक् ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तुक् आगमः भवति तुक् इत्यनेन तुक् आगमः कित् आगमः अस्ति ह्रस्वरुकारान्तधातूनां प्रसङ्गे अत्र धातुः अस्ति स्मृ क्त्वा प्रत्यये परे स्मृत्वा तत्र किमपि कार्यं नास्ति स्मृयोगः क्त्वा अनुबन्धलोपे सति क्त्वा इत्यत्र त्वा अवशिष्यते स्मृयोगः त्वा स्मृत्वा तावदेव किन्तु स्मरति इत्यत्र किमर्थं गुणकार्यम्
विस्मरति स्मृयोगः भ्वादिगणे अस्ति वा
भ्वादिगणे अस्ति
सप् अस्ति चेत् गुणकार्यं भवति
उत्तमं स्मृधातुः ऋकारान्तधातुः इगन्तधातुः अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण शप् प्रत्ययं निमित्तीकृत्य स्मृ इति धातुरूपी अङ्गे गुणकार्यं भूत्वा स्मृ स्मर् भवति स्मर्योगः आयोगः ति स्मरति वियोगः स्मरति विस्मरति तत्र गुणकार्यमस्ति स्मृत्वा इत्यत्र गुणकार्यं नास्ति विस्मृत्य इत्यत्रापि गुणकार्यं नास्ति तत्र तकारः कुतः आगतः इति प्रश्नः उदेति वियोगः स्मृयोगः तकारः योगः य अस्ति तकारः कुतः आगतः ह्रस्वस्य पीति कृति तुक् इति विशिष्टसूत्रेण तुक् आगमः भवति अतः विस्मृत्य इति रूपं भवति अवगत्य आगत्य इत्यत्रापि तुक् आगमः भवति अग्रिमं वदतु
त्यजति त्यजदातुतः लट्लकाररूपं त्यजति त्वान्तरूपं त्यक्त्वा तत्र
सन्धिकार्याणि सन्ति खलु
भगिनि
सन्धिकार्याणि सन्ति त्यज् जकारान्तधातुः अस्ति त्यज् आदौ त्यग् भवति पश्चात् त्यक् भवति खरिच इति
खरिच इत्यनेन ककारादय
आयाति
ककारः त्वान्तरूपम् अनुबन्धलोपानन्तरं त्वा त्यक्त्वा
परित्यज्य वदतु
परियोग उपसर्गतः त्यज् धातुतः ल्यप् त्यज्य अन्यत्कारं न परित्यज्य
अग्रे वदतु
गच्छति गत्वा गच्छति लट्लकाररूपं गमयोगः तत्त्वादेशः भवति गच्छति गमयोगः त्वा मकारलोपः भवति गत्वा लेप् अवयोगः गम् गत्य तत्रापि मकारलोपः भवति
उत्तमं मकारलोपः भवति इति एका वार्ता अन्या वार्ता का इत्युक्ते तत्र मकारलोपः विकल्पेन भवति
मकारान्तधातूनां
उत्तमम् अवगम्य अवगत्य इति रूपद्वयम् आयाति आगत्य आगम्य तत्र वाल्यपि इति सूत्रेण रूपद्वयं सिद्ध्यति भवती एव वदतु सम् उपसर्गपूर्वक गम् धातुतः ल्यप् योजनेन
सङ्गत्य सम् सङ्गत्य 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 सङ्गम्य
सङ्गम्य आ उपसर्गपूर्वक गम् धातुतः ल्यप्
आगत्य आगम्य
निर् उपसर्गपूर्वक गम् धातुतः ल्यप्
निर्गत्य निर्गम्य
अधि उपसर्गपूर्वक गम् धातुतः ल्यप्
अधिगम्य अधिगत्य
अनु उपसर्गपूर्वकः अस्ति चेत्
अनुगम्य अनुगत्य
संयोगः अधियोगः गम्
संगत्य संगत्य
पुनः वदामि शृणोतु संयोगः अधियोगः गम्
अधियोगः सम अधि संयोगः अधि संयोगः अधि
चिन्ता मास्तु रूपमस्ति समधिगत्य समधिगम्य
अवगतम्
इमानि पदानि परिचितानि अतः पृच्छन्ती अस्मि प्रतियोगः आयोगः गम् योगः ल्यप् प्रतियोगः आयोगः गम् योगः ल्यप्
प्रत्यागत्य प्रत्यागम्य
उत्तमम् इमानि पदानि परिचितानि प्रत्यागच्छति निर्गच्छति समधिगच्छति निर्गच्छति अवगच्छति अवगत्य अवगम्य इमानि पदानि परिचितानि अतः ज्ञातव्यानि साधु भगिनी इदानीं दर्शनभगिनी भवती कृपया अग्रे वदतु
अस्तु धातुः तत्र किल अथवा पाठस्य धातुः यदि उपसर्गसहितः भवति तर्हि त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः भवति धातुः पुरतः इति वक्तुं शक्नुमः वा उपसर्गः अस्ति चेत् तत् उपसर्गसहितः इति वदामः तदा धातोः त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः आगच्छति न तु त्वा प्रत्ययः आगत्य विस्मृत्य आनीय इत्यादीनि ल्यप् प्रत्ययान्तानि अव्ययानि तत्र त्वा प्रत्ययः अपि अव्ययम् एवमेव ल्यप् प्रत्ययः अपि अव्ययं ल्यबन्तानि इत्यपि तेषां नाम तर्हि तत्र ल्यप् अन्तः अस्ति तदर्थं तत्र जष्त्वसन्धि भूत्वा ल्यबन्तम् इति वदामः
उत्तमम् आगत्य विस्मृत्य आनीय एतेषां त्रयाणां पदानां प्रसङ्गे किञ्चित् वदतु
आगत्य तत्र गम् धातोः पूर्वे आ इति उपसर्गः अस्ति तस्य ल्यप् रूपम् अस्ति आगत्य एवमेव स्मृ धातोः पूर्वे वि इति उपसर्गः अस्ति तस्य ल्यप् रूपं विस्मृत्य एवमेव आनीय नी इति धातोः पूर्वे आ इति उपसर्गः अस्ति तस्य ल्यप् रूपम् आनीय इति
उत्तमम्
रूपद्वयमपि अस्ति इमानि पदानि अव्ययानि अव्ययात् आप्सुपः इति सूत्रेण अव्ययात् परस्य सुप्रत्ययस्य लुक् भवति अव्ययात् आप्सुपः इत्यस्मिन् लुक् इति पदं नास्ति लुक् इति पदं पूर्वसूत्रात् अनुवृत्तं भवति अव्ययात् आप्सुपः इति सूत्रेण अव्ययपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति अतः सर्वेषु वचनेषु सर्वासु विभक्तिषु एकमेव रूपं द्रष्टुं शक्नुमः अग्रे कानिचन रूपाणि दत्तानि रूपाणि वदतु
अस्तु उच्चैः पठत जानीत च त्वान्तरूपम् उपसर्गसहितं क्रियापदं ल्यबन्तरूपम् तत्र गच्छति त्वान्तरूपं गत्वा आगच्छति उपसर्गसहितं रूपम् अपि च ल्यबन्तम् आगत्य इति अस्ति गम् धातोतः त्वा प्रत्ययस्य योजनेन गत्वा आ इति उपसर्गः अस्ति इत्युक्ते ल्यप् प्रत्ययः स्थापनीयं तस्य रूपम् आगत्य इति भवति अग्रे वदनीयं किम्
वदतु
नयति नीत्वा आनयति इति उपसर्गसहितं क्रियापदम् आनीय इति ल्यबन्तम् करोति कृत्वा उपकरोति उपसर्गः उपकृत्य इति ल्यबन्तं रूपं
किं वक्तुमिच्छामि इत्युक्ते नीत्वा इत्यत्र नी इति धातुः अस्ति नी धातोः लटीरूपं नयति अस्ति नयति इति रूपसाधनवेलायां गुणकार्यं भवति भवादिगणे अस्ति इति कारणतः भवादिगणे शप् विकरणप्रत्ययः अस्ति इत्यतः गुणकार्यं भूत्वा नी धातोः रूपं नयति तत्र गुणकार्यं भवति सन्धिकार्यमपि अस्ति किन्तु नीत्वा इत्यत्र गुणकार्यं न भवति किमर्थं चेत् धातोः परं क्त्वा प्रत्ययः अस्ति वदतु
कित् अस्ति तदर्थं गुणस्य प्रसङ्गः न भवति
गुणस्य प्रसङ्गः नास्ति उत्तमम् उपकृत्य इति पठितवती खलु इतोपि कानिचन पदानि परिचितानि पदानि मम पुरतः सन्ति एकवारं वदतु अप उपसर्गपूर्वक कृ धातुतः ल्यप् योजनेन
अपकृत्य
सत् उपसर्गः नास्ति उपसर्गतुल्यम् अस्ति तदा किं रूपं सिध्यति सत् योगः तु योगः कृ योगः ल्यप्
क्षम्यताम् आदौ किम् अस्ति
सु उपसर्गः अस्ति सुयोगः कृ योगः ल्यप्
सुकृत्य
उत्तमं प्रति उपसर्गपूर्वकः कृ धातुतः ल्यप् योजनेन
प्रतिकृत्य
उप उपसर्गपूर्वकः कृ धातुतः ल्यप् योजनेन
उपकृत्य
अधि उपसर्गपूर्वकः कृ धातुतः ल्यप् योजनेन
अधिकृत्य
अनु उपसर्गपूर्वकः कृ धातुतः ल्यप् योजनेन
अनुकृत्य
वि उपसर्गपूर्वकः कृ धातुतः ल्यप् योजनेन
व्यकृत व्यकृत्य
वि योगः कृ योगः ल्यप्
विकृत्य विकृत्य
प्र उपसर्गपूर्वकः कृ धातुतः ल्यप् योजनेन
प्रकृत्य
उत्तमम् अपकृत्य सत्कृत्य सुकृत्य प्रतिकृत्य उपकृत्य अनुकृत्य अधिकृत्य विकृत्य प्रकृत्य इत्यादीनि पदानि सन्ति इमानि परिचितानि पदानि अग्रे सरेम अग्रे अपि वदतु
स्मरति इति लटीरूपं स्मृधातोः स्मृत्वा इति त्वान्तरूपं त्वान्तरूपं विस्मरति इति वि उपसर्गः पूर्वं स्मृधातु तत्र गुणकार्यम् अभूत् विस्मृत्य इति ल्यबन्तरूपं वि वि इति उपसर्गः अस्ति तत्र तत्र किं ल्यबन्तरूपस्य यदा वयं कुर्मः तदा रूपं सृजामः तदा गुणकार्यं न भवति यतोहि तत् त्वा इव एव अस्ति ल्यप् कित् अस्ति तदर्थं गुणः न भवति
उत्तमम् अत्र धातुः स्मृ स्मृ धातुः ऋकारान्तधातुः भुवादिगणे अस्ति अतः शप् विकरणप्रत्ययः आयाति शप् विकरणप्रत्ययं निमित्तीकृत्य स्मृ इति धातुरूपी अङ्गे सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा स्मर् भवति स्मर् योगः आयोगः ति स्मरति इति लटीरूपम् अस्ति स्मृत्वा इत्यत्र विस्मृत्य इत्यत्र गुणकार्यं निषिध्यते इत्युक्ते धातोः परं यः प्रत्ययः अस्ति सः प्रत्ययः कीदृशः प्रत्ययः आर्धधातुकप्रत्ययः वा सार्वधातुकप्रत्ययः वा प्रत्ययस्य स्वभावः कः सः प्रत्ययः कित् प्रत्ययः वा नित् प्रत्ययः वा प्रत्ययस्य स्वभावः अवगन्तव्यः स्वभावम् अनुसृत्य अग्रिमानि कार्याणि भवन्ति साधु भगिनी इदानीं रोहिणी भगिनी भवती वदतु
लिखति लिखित्वा अत्र इडागमश्रयदायोगं भवति लघुयोग इडागमं भवति लिखित्वा विलिखति वि उपसर्गपूर्वः लिखधातु वि लिख् योग लिख् विलिख्य इति रूपं भवति.
उत्तमं. लिख् इति धातौ गुणकार्यं भवितुम् आनुकूल्यम् अस्ति. इगुपथ धातुः एव. किमर्थं लिखति इत्यत्र गुणकार्यं नास्ति?
क्वचित् भवति
लिखति इत्यत्र.
लिखति लिखयोग स्वप्रत्ययः. स्वप्रत्ययः किञ्चित् भवति, तस्मात् गुणकार्यं निषिध्यते.
लिखित्वा प्रसङ्गे तत् चिन्तनं साधु एव. लिखित्वा इत्यत्र गुणकार्यं निषिध्यते, किन्तु लिखति इत्यत्रापि गुणकार्यं निषिध्यते. किमर्थं चेत् लिख् धातुः भ्वादिगणे नास्ति. तुदादिभ्यः शः इति सूत्रेण श इति विकरणप्रत्ययः आयाति. श इति विकरणप्रत्यये षित्वम् अस्ति, किन्तु पित्वं नास्ति. लिख् धातुः तुदादिगणीयधातुः, अतः लिखित् धातुः युगपदधातुः अस्ति चेदपि सार्वधातुकम् अपित् क्निति च इति सूत्रद्वयेन श इति प्रत्यये ण्यत्वम् अध्यारोप्यते. ण्यत्वम् अध्यारोप्यते चेत् गुणनिषेधः भवति क्निति च सूत्रेण. सार्वधातुकम् अपित् सूत्रेण तत्कार्यं भवति. अतः लिखति इति रूपमेव सिध्यति. लिखित्वा इत्यत्रापि प्रत्ययः कित् प्रत्ययः, अतः गुणकार्यं निषिध्यते. रोहिणी भगिनी अग्रे वदतु.
क्रीणाति क्रीडातु स्वप्रत्ययपरे क्रीत्वा विक्रीणीते, तत्र नि उपसर्गपूर्वक क्रीडातोः रूपं विक्रीय इति लेबन्धरूपम् अस्ति.
उत्तमं. धातुः अस्ति क्रीधातुः. क्रीधातुः अपि क्रयादिगणे अस्ति. क्रयादिगणे क्रीधातुः अस्ति. क्रीयोगः श्नायोगः ति इति स्थितिः. नवमे गणे अस्ति क्रीधातुः. डुक्रीङ् इति रूपम् अस्ति. क्रूधातोः रूपं डुक्रुञ्. क्रीधातुः उभयपदी धातुः, तत्रापि अनुबन्धवर्णाः सन्ति. क्रयादिगणे अस्ति क्रियादिभ्यः श्ना. क्रियादिगणीय प्रथमसदस्यः क्रीधातुः, अतः लटि रूपं क्रीणाति. धातुः अनुबन्धलोपे सति क्री एव अस्ति. क्रीयोगः क्त्वा क्रीत्वा इति रूपं भवति, किन्तु धातुः उभयपदी, अतः क्रीणाति क्रीणीते इति रूपम् अस्ति. विक्रीणीते इति वि उपसर्गपूर्वकः आत्मनेपदिरूपं दत्तमस्ति. धातुः उभयपदी, क्रीणाति इति परस्मैपदिरूपं, क्रीणीते इति आत्मनेपदिरूपम् अस्ति. क्रीणीते इत्यत्र एकं सूत्रमस्ति. ईहल्यघोः इति सूत्रेण ईकारः सिद्ध्यति. श्ना इति विकरणप्रत्ययः अस्ति तस्मिन् गणे. श्नाविकरणप्रत्ययस्य आकारस्य ईकारादेशः भवति हलादिकित् नित् प्रत्यये परे. तदर्थमेव क्रीणीते इति रूपं सिद्ध्यति. यबन्तरूपसिद्धिः अत्र काठिन्यं नास्ति. विक्रीय वियोगः क्रीयोगः य विक्रीय इति भवति. अग्रे वदतु.
जानाति ज्ञात्वा, अत्र धातुः जा भवति, न जानामि.
ज्ञा इति धातुः,
ज्ञा इति आदेशः भवति. ज्ञायोग त्वा ज्ञात्वा, विजानाति विज्ञाय,
उत्तमं भगिनि. विज्ञाय इति रूपम् अस्ति. पुनः स्मारयन्ती अस्मि, नञ् समासः अस्ति चेत् अज्ञात्वा इति रूपं भवति, न तु अज्ञाय. अज्ञाय इति रूपम् असाधु. आ इति उपसर्गः नास्ति. आ इति पूर्वम् अस्ति चेत् तत्र नञ् समासः अस्ति इति ज्ञातुं शक्नुमः. अतः अज्ञाय इति न भवति, अज्ञात्वा इति एव भवति. किन्तु वि इति उपसर्गः अस्ति इति कारणतः विज्ञाय इति रूपं भवति. अग्रे वदतु.
स्थापयति सा धातुः चिरादिगणीयरूपं भवति इति चिन्तयामि. स्थापयति
भगिनी, अत्र चुरादिगणीयः इति न वदामः. किमर्थं चेत् स्थाधातोः रूपं तिष्ठति अस्ति. तिष्ठति इति अणिजन्तरूपम् अस्ति, किन्तु अत्र णिच् अस्ति. अत्र णिच् प्रेरणार्थे अस्ति, इत्युक्ते पठति पाठयति इव अत्र तिष्ठति स्थापयति. चुरादिगणीयधातुषु स्वार्थे अपि णिच् प्रत्ययः विहितः भवति. अयं धातुः चुरादिगणीयः नास्ति. स्थाधातोः प्रसङ्गे णिच् योजनेन स्थापि इति नूतनधातोः निर्माणं भवति. स्थापि इति णिजन्तधातुः, तत्र प्रेरणार्थे णिच् अस्ति, स्वार्थे नास्ति. धातुः भुआदिगणीयः एव. लटिरूपसाधनवेलायां तिष्ठ आदेशः भवति इति कारणतः स्थाधातोः रूपं तिष्ठति. अणिजन्तरूपं तिष्ठति, अणिजन्तरूपं स्थापयति. अत्र णिजन्तरूपं दत्तमस्ति, संस्थापयति. वदतु.
स्थापयति स्थापयित्वा, अत्र इडागमः दृश्यते. स्थापियोगप्रत्ययः भवति, तस्मात् इडागमः भवति. स्थापयित्वा संस्थापयति, सम् उपसर्गपूर्वक स्थापयति, निबन्धरूपं संस्थाप्य.
उत्तमम्. स्थापयित्वा इत्यत्र क्त्वा प्रत्ययः, भवती उक्तवती क्त्वा प्रत्ययः तकारादिप्रत्ययः. तकारादिप्रत्ययः अस्ति चेत् सेट् प्रत्ययः, आर्धधातुकस्येड् वलादेः इति सूत्रेण तकारः वल् प्रत्याहारे अस्ति, अतः इडागमः भवति. स्थापयित्वा तत्र धातुः अपि सेट्, प्रत्ययः अपि सेट्, द्वयोः आनुकूल्यम् अस्ति चेदेव इडागमः भवति. धातौ अपि आनुकूल्यं स्यात्, प्रत्यये अपि इडनुकूलता स्यात्, तदानीम् एव इडागमः भवति. तादृशी स्थितिः अत्र अस्ति, अतः स्थापयित्वा इति रूपं भवति. किन्तु संस्थाप्य इत्यत्र ल्यप् प्रत्ययः यकारादिः, अनिट् प्रत्ययः, अतः इडागमः नास्ति. अतः एव रूपं संस्थाप्य. अग्रे वदतु.
प्रेषयति प्रेषयित्वा, तत्रापि इडागमः भवति. सम्प्रेषयति सम्प्रेष्य.
उत्तमम्. अत्र किं ज्ञातव्यं? प्रेषरु इति धातुः अस्ति, ऋकारः इति संज्ञकः अस्ति. तत्र ऋकारः इति संज्ञकः अस्ति चेत् उपदेशे जनुनासिके इत् इति सूत्रेण धातौ स्थितस्य अनुनासिकाचवर्णस्य इत् संज्ञा भूत्वा अपगच्छति खलु. अतः लौकिकधातुः प्रेष अस्ति, तत्र अणिजन्तरूपं प्रेषते. अत्र किं लिखितमस्ति अस्माकं पुस्तके? णिजन्तरूपं दत्तमस्ति, णिच् अपि अत्र अस्ति. अतः एव णिजन्तरूपं प्रेषयति, अणिजन्तरूपं प्रेषते. आत्मनेपदी. अत्र णिजन्तरूपम् अस्ति इति कारणतः लटीरूपं प्रेषयति, क्त्वान्तरूपं प्रेषयित्वा, ल्यबन्तं सम्प्रेष्य. अग्रे वदतु.
भगिनी एकः प्रश्नः अस्ति, तत्र निजन्तम् इति अवगन्तं, परन्तु प्रेषयिष्यामि यदा अहं वदामि तदा तु निजन्तं नास्ति किल. अहं प्रेषयिष्यामि, प्रेषयिष्यामि य आगच्छति तत्र, प्रेषामि प्रेषामि तु नास्ति. प्रेष लटीरूपे अपि प्रेषयामि.
अत्र किञ्चित् वदामि. अणिजन्तरूपमस्ति प्रेषते, किन्तु प्रेषयति प्रेषयति, प्रेषयतः प्रेषयन्ति, प्रेषयसि प्रेषयथः प्रेषयथ, प्रेषयामि प्रेषयावः प्रेषयामः, इमानि रूपाणि लटीरूपाणि. किन्तु प्रेषयिष्यामि इत्यत्र लृट्लकाररूपमस्ति, भविष्यत्कालरूपमस्ति. लृट्लकारप्रसङ्गे स्या प्रत्ययः आयाति. स्या प्रत्ययः सकारादिप्रत्ययः, इडनुकूलप्रत्ययः, अतः इडनुकूलता वर्तते. तत्र धातव आनुकूल्यमस्ति चेत् इडनुकूलता वर्तते, अतः प्रेषयिष्यामि इत्यत्र इडागमः दृश्यते. तद्रूपं लृट्लकाररूपं स्यतासील् रु लुटोः सूत्रेण स्या इति प्रत्ययः तत्र आयाति. वदतु.
सम्प्रेषयति इति अस्ति किल, प्रेषयति अस्ति, तत्र प्रेषयति अपि णिजन्तम् एव किल,
णिजन्तमेव,
हा, परन्तु यदा अहं अहं पत्रं प्रेषयामि तत्र णिजन्तं कुत्र अस्ति? यतोहि अहं तु प्रेषयामि, अहम् एव कारणं किल,
तद्रूपं तु णिजन्तमेव, अणिजन्तरूपं तु प्रेषते,
तदपि वक्तुं शक्नुमः किं प्रेषे, अहं प्रेषे,
साधारणतया प्रेषयामि, प्रेषयन्ति, इमानि रूपाणि एव द्रष्टुं शक्नु.
अस्तु भगिनि,
तस्मिन् प्रसङ्गे चिन्तनं कुर्मः. अग्रे सरेम. रोहिणी भगिनी, भवती वदतु.
हरति कृत्वा धातु हरति इत्यस्य गुणं भवति सार्वधातुकयोः इति सूत्रेण हरति इति रूपं सुयोग स्व कृत्वा संहरति समुपसर्गपूर्वकधातोः रूपं संहरति संहृत्य इति लेबन्धरूपम्
संयोगः हृयोगः ल्यप् अस्ति. अत्र तकारः कुतः आगतः? संहृत्य वदतु.
हस्तस्य पिति कृति तुक् इति सूत्रेण तुकागमः भवति.
तुकागमः भवति इति कारणतः संहृत्य इति रूपं भवति. तुक् आगमः कित् अस्ति. कित् अस्ति इति कारणतः अन्ते आयाति. हृ धातोः अन्ते, तस्य अनन्तरम् आयाति. संयोगः हुरुयोगः तकारः योगः य संहृत्य इति रूपम्. अग्रे वदतु.
नमति नम् धातोः लटि रूपं नमति. नत्वादि स्वान्तरूपम्. अत्र अनुनासिकस्य लोपः भवति किमपि सूत्रेण. प्रणमति प्रणमति
नम् धातोः प्रसङ्गे किं ज्ञातव्यं? धातुः मूले तु णकारादिधातुः, अतः णो नः इति सूत्रस्य कार्यं भवति. इत्युक्ते औपदेशिकधातौ मूर्धन्यणकारः अस्ति, अतः प्राकृतिकं कार्यं भवति णो नः सूत्रेण. नम् इति लौकिकधातुः, नम् लौकिकधातुतः क्त्वा प्रत्ययस्य योजनेन नत्वा इति रूपं सिध्यति. तत्र अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति सूत्रेण अनुनासिकान्तधातुः, अनुदात्तोपदेशधातुः नम् धातुः, अतः मकारलोपः तेन विशिष्टसूत्रेण भवति. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति, तेन सूत्रेण मकारलोपः भवति. अपि च विशिष्टसूत्रेण णत्वं भवति अस्मिन् पदे. किमर्थं चेत् प्रा इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव, किन्तु अत्र पदद्वयम् अस्ति इति मन्तव्यम्. प्रा इति एकं पदं, नमति इति अन्यत् पदम् अस्ति. पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्त्यनकारः अस्ति. तस्यां दशायां विशिष्टसूत्रम् आगत्य कार्यं करोति, न तु साधारणसूत्राणि. साधारणसूत्राणि अत्र कार्यं न कुर्वन्ति. प्रा इति उपसर्गे रेपः निमित्तमस्ति, उत्तरपदे दन्त्यनकारः अस्ति. प्रणमति इति समस्तपदं नास्ति, प्रणम्य इति समस्तपदम् इति वक्तुं शक्नुमः. प्रणमति इति तिङन्तपदमेव, तत्र विशिष्टसूत्रेण णत्वं भवति. नम् धातोः प्रसङ्गे णत्वप्रसङ्गे नवत्रिंशत् सूत्राणि सन्ति. कानिचन सूत्राणि णत्वविधायकसूत्राणि, कानिचन सूत्राणि णत्वनिषेधकसूत्राणि सन्ति. तस्मिन् प्रकरणे, णत्वप्रकरणे आहत्य नवत्रिंशत् सूत्राणि सन्ति. अग्रे वदतु
भगिनी. क्षम्यताम्, तत्र णत्वा तत्र नम् धातुः अस्ति, मकारस्य लोपः भवति, परन्तु अत्र प्रणम्य प्रणम्नम् म अस्ति किल, तर्हि तत् किं विशेषसूत्रम् अस्ति किम्?
मकारान्तधातुः खलु नम् धातुः, अतः वाल्यपि इति सूत्रेण, वाल्यपि इति सूत्रेण प्रणम्य इति एकं रूपम् अस्ति, प्रणत्य इति रूपमपि अस्ति. केवलं मकारान्तधातूनां प्रसङ्गे प्रथमतया अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक् इति सूत्रेण मकारलोपः भवति इति पठामः. पश्चात् वाल्यपि इति सूत्रम् आगत्य वदति यत् एकस्मिन् पक्षे मकारलोपः भवति, अन्यस्मिन् पक्षे मकारलोपः न भवति इति वाल्यपि सूत्रेण उच्यते.
अस्तु भगिनी, धन्यवादः.
रोहिणी भगिनी वदतु.
श्रावयति तदपि निजन्तरूपम् इति चिन्तयामि. श्रावयित्वा इति स्वान्तरूपं क्रीडागमसहिता भवति. प्रक्षालयति प्र उपसर्गपूर्वक श्रावयति. प्रक्षाल्य इति लेबन्धरूपं क्षालयोग ल्यप् प्रक्षाल्य इति रूपम्.
उत्तमम्. अत्र धातुः अनेकाच् धातुः. क्षाली इति धातुः अस्ति. धातुः अनेकाच् अस्ति चेत् धातुः सेट् भवति. सर्वे णिजन्तधातवः अनेकाचः. पाठी इत्यत्र एकस्मात् अधिकाः अच् वर्णाः सन्ति. पाठी क्षाली इत्यत्र एकस्मात् अधिकाः अच् वर्णाः सन्ति चेत् सः धातुः अनेकाच्. धातुः एकाच् अस्ति चेत् एकाच उपदेशे अनुदात्तात् सूत्रेण धातुः अनिट् भवति. किन्तु धातुः अनेकाच् अस्ति चेत् धातुः सेट् भवितुं शक्नोति. अत्र धातव आनुकूल्यम् अस्ति. अनेकाच् धातुः अस्ति इति कारणतः, अपि च क्त्वा प्रत्यये तकारः वलादिवर्णः, अतः धातव आनुकूल्यम् अस्ति. प्रत्यये अपि आनुकूल्यम् अस्ति, अतः इडागमः भूत्वा क्षालयित्वा इति रूपं सिद्ध्यति. किन्तु प्रक्षाल्य इत्यत्र चिन्तनं किं? रोहिणी भगिनी वदतु.
निबन्धयोगे क्षालयोग या प्रक्षाल्य इति भवति.
अत्र इडागमः किमर्थं न भवति इत्युक्ते यप् प्रत्ययः यकारादिप्रत्ययः, यकारः वल् प्रत्याहारे नास्ति. वल् प्रत्याहारे नास्ति चेत् प्रत्यये इडागमः भवितुम् आनुकूल्यं नास्ति, अतः इडागमरहितं रूपं सिद्ध्यति. अतः प्रक्षाल्य. अग्रे वदतु.
कर्षति कृषधातु अत्र गुणा भवति. कर्षति इति लट् रूपं. कृषयोग त्वा कृष्ट्वा अत्र टुनष्टु इति सूत्रं प्रवर्तते इति चिन्तयामि. सकारस्य सकारः भवति कृष्ट्वा इति रूपं भवति. उपसर्गपूर्वः कर्षति धातु कर्षति इति रूपम्. आकृष्य इति लेबन्धरूपम्.
उत्तमम्. अत्र कृष्ट्वा इति रूपं दत्तमस्ति. धातुः अस्ति कृष्, लौकिकधातुः कृष् अस्ति. कृष् इति कथनेन षकारात् पूर्वं ह्रस्वरुकारः अस्ति, अतः इगुपथधातुः. अतः फुगन्तलघुपथस्य च इति सूत्रेण शपं निमित्तीकृत्य गुणकार्यं भूत्वा कर्षति इति रूपं भवति. लटीरूपं कर्षति, तत्र गुणकार्यं दृश्यते. कृष्ट्वा इत्यत्र केवलं सन्धिकार्यम् अस्ति. क्त्वा प्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति. अङ्गकार्यं भवितुं तत्र आनुकूल्यं नास्ति. किमर्थं चेत् क्त्वा प्रत्ययः कृत् प्रत्ययः, अतः गुणनिषेधः. अतः कृष्योगः त्वा इति रूपम् अस्ति. षकारस्य प्रभावेण दन्त्यतकारस्य स्थाने मूर्धन्यटकारः आयाति, तेन कृष्ट्वा इति रूपं सिद्ध्यति. आकृष्य इत्यत्र किमपि नास्ति. आयोगः कृष्योगः या आकृष्य तावदेव. अग्रे वदतु.
तिष्ठति अत्र धातु सा तिष्ठ आदेशः भवति. तिष्ठति इति लडीरूपं. सा योगत्वा इडागमः भवति. तित्वा इति स्वान्तरूपम्. उत्तिष्ठति उत् उपसर्गपूर्वकः तिष्ठति. छाया इति लगन्धरूपम्. योग सा धातोः सकारस्य लोपः भवति किमर्थमिति न जानामि उद्धाय इति लेबन्धरूपं भवति
उत्तमं तिष्ठति इत्यत्र विशिष्टसूत्रेण स्था धातोः प्रसङ्गे तिष्ठ आदेशः भवति इत्यतः लटीरूपं तिष्ठति किन्तु स्थित्वा इत्यत्र किं भवति धातुः अस्ति स्था धातुः स्था इति कथनेन दीर्घ आकारान्तधातुः तत्र विशिष्टसूत्रमस्ति द्यतिस्यति मा स्थाम् इति किति स्था धातोः प्रसङ्गे इदं सूत्रं कार्यं करोति अतः एव स्थित्वा स्थितवान् स्थितिः स्थितं धातुः स्था एव किन्तु रूपाणि कथं भवन्ति स्थित्वा स्थितवान् स्थितिः स्थितः स्थिता स्थितम् इत्युक्ते क्त्वान्तरूपाणि क्तान्तरूपाणि क्तवतु रूपाणि क्तिन् रूपाणि एतेषां चतुर्णां प्रसङ्गे द्यतिस्यति मास्थाम् इति किति इति सूत्रेण स्था इत्यत्र आकारस्य स्थाने ईकारादेशः भवति तत्र निमित्तं किम् इत्युक्ते तकारादि कित् प्रत्यये परे इदं कार्यं भवति क्तवतु क्ता क्तिन् क्त्वा एते चत्वारः प्रत्ययाः तकारादिप्रत्ययाः अनुबन्धलोपे सति तकारादिप्रत्ययाः कित् प्रत्ययाः तेषु प्रत्ययेषु कित्वम् अस्ति तकारादयः ते अतः द्यतिस्यति मास्थाम् इत्तिकिति इति सूत्रेण आकारस्य स्थाने इकारः भवति इत्यतः स्थित्वा इति रूपं भवति उत्थाय इत्यत्र एकं सन्धिकार्यं भवति उदः स्थास्तम्भौ पूर्वस्य इति सूत्रेण उत्थापयति उत्थानम् उत्थाय इत्यादिषु पदेषु स्था धातोः प्रसङ्गे तत्सूत्रं कार्यं करोति एकः अन्यः धातुः अपि अस्ति तस्मिन् सूत्रे उत्थानम् उत्थापयति उत्थाय इत्यादिषु रूपेषु तत्सूत्रं कार्यं करोति उदः स्थास्तम्भौ पूर्वस्य इति सूत्रेण कार्यं भवति स्था धातोः प्रसङ्गे स्तम्भधातोः प्रसङ्गे तत्सूत्रं कार्यं करोति अतः एव उत्थानं ल्युडन्तरूपम् उत्थाय ल्यबन्तरूपम् अग्रे वदतु
स्मरति स्मृधातुः गुणं भूत्वा स्मरति इति लड्रूपं स्मृत्वा इति स्वान्तरूपं सम् उपसर्गपूर्वकं स्मरति संस्मरति संस्मृत्य तत्र सुगागमः भवति संस्मृत्य इति ल्यबन्तरूपम्
अत्र धातुः स्मृ अत्र ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तुक् आगमः भवति संस्मरति इत्यत्र सम् इति उपसर्गः अस्ति अत्र किमर्थं परसवर्णादेशः न भवति वदतु
सकारस्य परसवर्णः न भवति
सकारस्य परसवर्णः नास्ति एव अतः परसवर्णादेशः न दृश्यते तदर्थमेव अनुस्वारसहितं रूपम् एकं रूपमेव द्रष्टुं शक्नुमः संस्मरति इत्यत्र अनुस्वारसहितं रूपमेव जायते अग्रे अपि वदतु भवती एव
भवति भूधातोः लड्रूपम् अत्र गुणभूत भोयोग शप्योग भवति इति लड्रूपं भूयोग स्वा भूत्वा इति स्वान्तरूपम् अनु उपसर्गपूर्वकः भवति अनुभवति अनुभूय इति लेबन्धरूपम् अनुयोग भूयोग लेप् अनुभूय इति एव भवति
उत्तमम् अत्र भूधातुः ईगन्तधातुः एव ईगन्तधातुः अस्ति इति कारणतः लटिरूपेषु गुणकार्यं दृश्यते भू भो भवति पश्चात् एचोयवायावः इत्यनेन सन्धिकार्यं भूत्वा भवति इति रूपं लटिरूपं सिद्ध्यति किन्तु क्त्वा प्रत्ययः कित् अस्ति कित्वात् गुणनिषेधः अतः भूयोगः क्त्वा भूत्वा तावदेव अनुभूय इत्यत्रापि किमपि कार्यं नास्ति अनुयोगः भूयोगः य अनुभूय तावदेव मम पुरतः नी इति धातुः अस्ति नी धातोः कानिचन रूपाणि पश्यामः आ उपसर्गपूर्वकः नी धातुतः ल्यप् योजनेन किं भवति आयोगः नियोगः य
आनीय
आनीय उत्तमम् उत्तु उपसर्गपूर्वकः नि धातुतः ल्यप् योजनेन उन्नीय इति रूपं भवति उत्तयोगः नियोगः य उन्नीय इति रूपं भवति तत्र अनुनासिकसन्धिकार्यमस्ति उन्नीय यरोऽनुनासिकेऽनुनासिको वा इति सूत्रेण उन्नीय इति रूपं भवति निर् उपसर्गपूर्वकः नि धातुतः ल्यप् योजनेन किं भवति निर्योगः नियोगः य
निर्णीय
उत्तमं निर्णीय इति रूपं भवति संयोगः उत्तयोगः नियोगः ल्यप् समुन्नीय इति रूपं भवति संयोगः उत्तयोगः नियोगः य समुन्नीय इति रूपं भवति अप उपसर्गपूर्वक नि धातुतः ल्यप् योजनेन
अपनीय
अपनीय इति भवति अनु अस्ति चेत् अनुनीय इति भवति प्रा अस्ति चेत् प्रणीय भवति प्रतियोगः आयोगः नियोगः ल्यप् प्रतियोगः आयोगः प्रत्यानीय इति
प्रत्यानीय
इमानि पदानि परिचितानि अतः चिन्तयामः दर्शना भगिनी इदानीं भवती वदतु अग्रे किं लिखितम्
दिशति इति लट्टि रूपं दिष्ट्वा निर्दिशति निर्दिश्य तत्र दिश्यति धातु किं भगिनि दिश्यति धातु तर्हि भ्वादिगणे अस्ति इति मन्ये
भुवादिगणे नास्ति इति कथं वक्तुं शक्यते भुवादिगणे
अन्यथा दिशाति इति अभविष्यत्
चिन्तयतु धातुः भुवादिगणे नास्ति इति कथं चिन्तयितुं शक्नुमः
विकरणप्रत्ययः नास्ति तत्र तदर्थं दिश् नैव अवतु अस्ति किल दिशति भुवादिगणे अस्ति चेत् तत्र गुणस्य तु प्रसङ्गः नास्ति अदादिगणे अस्ति किं भगिनि
अत्र चिन्तनं कथं भवेत् इत्युक्ते धातुः दिश् अस्ति दिश् धातुः भुवादिगणे अस्ति चेत् धातुः इगुपदधातुः अस्ति इति कारणतः शपं निमित्तीकृत्य गुणकार्यं भूत्वा तस्य रूपं देशति भवति स्म किन्तु अत्र देशति इति रूपं नास्ति दिशति एव अस्ति इत्युक्ते अत्र गुणकार्यं न भवति धातौ आनुकूल्यम् अस्ति चेदपि गुणकार्यं नास्ति तादृशी स्थितिः कस्मिन् गणे भवति तुदादिगणे अस्ति तुदादिगणे अपि विकरणप्रत्ययस्य अवशिष्टभागः आदृश्यते भुवादिगणे अपि विकरणप्रत्ययस्य अवशिष्टभागः आ एव तुदादिगणे अपि विकरणप्रत्ययस्य अवशिष्टभागः आ एव अस्ति किन्तु तत्र भेदः कः इत्युक्ते भुवादिगणे गुणकार्यं भवति तुदादिगणे गुणकार्यं न भवति अतः अयं धातुः तुदादिगणीयः यथा लिख् धातुः अस्ति लिख् धातोः प्रसङ्गे अपि धातोः आनुकूल्यम् अस्ति किन्तु धातोः परं यः विकरणप्रत्ययः अस्ति सः विकरणप्रत्ययः पित् प्रत्ययः नास्ति विकरणप्रत्यये अपित्वम् अस्ति तुदादिगणीयविकरणप्रत्यये अपित्वम् अस्ति अतः एव लिख् धातोः रूपं लिखति न तु लेखति एवमेव अत्रापि दिशति न तु देशति वदतु
अग्रे दिश् योगः त्वा तत्र तकारस्य टकारः भवति सूत्रं कण्ठस्थि नास्ति
दिश् धातुः तालव्यषकारान्तधातुः तालव्यषकारान्तधातुः अस्ति चेत् तालव्यषकारस्य स्थाने मूर्धन्यषकारः आयाति इत्युक्ते षत्वं भवति तेन विशिष्टसूत्रेण षत्वं भवति आदौ पश्चात् स्टुत्वं भवति षत्वं भिन्नं स्टुत्वं भिन्नं षत्वम् इति कथनेन तालव्यषकारस्य स्थाने मूर्धन्यषकारः आयाति स्टुत्वम् इति कथनेन ष्टुनाष्टुः सूत्रेण
तकारस्य स्थाने टकारः आयाति
उत्तमं निर्दिशति इत्यत्र किमपि नास्ति खलु, निर्योगः दिशति,
निर्योगः दिशति,
वदतु।
एवमेव तत्रापि लेवन्तं रूपं साधयामश्चेत् तत्र निर्दिश् इति भवति, निर्दिश्य यकारस्य आगमनेन निर्दिश्य भवति।
उत्तमम्। ईक्षते वदतु।
ईक्षते, ईक्षित्वा निरीक्षते, निरीक्ष्य, तत्र ईक्षते अस्ति, ईक्षति धातुः। अत्र इडागमः भवति इति मन्ये, ईक्षित्वा भवति, निर्योगः ईक्षते, निरीक्षते भवति। अत्रापि कार्यं किमपि नास्ति, निरीक्ष्य भवति, निरीक्ष इति निरीक्ष इति किं निर् उपसर्गः पूर्वकम् ईक्षिति धातु यकारस्य आगमनेन निरीक्ष्य, तावदेव।
निरीक्ष्य, ईक्ष धातुः सेट् धातुः एव, सेट् धातुः अस्ति इति कारणतः एव अत्र रूपम् ईक्षित्वा। निर् उपसर्गः अस्ति चेत् निरीक्ष्य इति भवति, प्रा अस्ति चेत्
प्राक्ष प्राय अस्ति चेत् प्रेक्ष्य, क्षम्यताम्।
उत्तमं, सन्धिकार्यं करणीयं,
सन्धिकार्यं भवति।
प्रायोगः ईक्ष्य प्रेक्ष्य इति भवति। सम् उपसर्गः अस्ति चेत्
समीक्ष्य,
समीक्ष्य इति रूपं भवति, निरीक्ष्य। अप अस्ति चेत्
अपा, अपेक्ष्य,
अपेक्ष्य। अभि उपसर्गः अस्ति चेत्
अभीक्ष्य।
अव उपसर्गः अस्ति चेत्
अवेक्ष्य।
उत्तमम्। उप उपसर्गः अस्ति चेत्
उपेक्ष्य।
तत्र भेदः अस्ति खलु, अपेक्ष्य भिन्नम्, उपेक्ष्य भिन्नं खलु।
आम्, अपेक्ष्यते इति एक्स्पेक्टेशन्, उपेक्ष्यते इति सम्यक् पश्यति इति, अथवा अथवा लौकिके तु निग्लेक्ट् इति।
उत्तमम्। उपेक्षाकरण, छोड्नात्, नेग्लेक्ट् इति भवति। तत्र उपसर्गभेदेन रूपाणि भिद्यन्ते खलु, अपेक्ष्य इति भिन्नं पदम्, उपेक्ष्य इति भिन्नं पदमस्ति। निर् अस्ति चेत् निरीक्ष्य। परि उपसर्गपूर्वक ईक्ष धातोः रूपं किं भवति?
परीक्ष्य।
परीक्ष्य इत्युक्ते,
परीक्ष्य इत्युक्ते सम्यक् एक्सामिनेशन् इति, सम्यक् द्रष्टव्यमिति।
उत्तमं, परीक्षाकर्ण। परीक्षा इति पदमपि अस्ति खलु, तत्र किम् अस्ति, परि उपसर्गपूर्वकः ईक्ष धातुः, प्रा उपसर्गपूर्वक ईक्ष धातोः रूपं
प्रेक्ष्य।
उत्तमं। वि उपसर्गपूर्वक ईक्ष धातोः रूपं
वीक्ष्य।
उत्तमं, वीक्ष्य। प्रति उपसर्गः अस्ति चेत्
प्रत्येक्ष्य,
प्रतियोगः ईक्ष्य,
प्रतीक्ष्य, प्रतीक्ष्य, क्षम्यतां,
तत्र समनदेशसन्धिकार्यमस्ति खलु।
आम् आम्,
प्रतीक्ष्य इति भवति। समीक्ष्य, कानिचन रूपाणि इमानि, अपेक्ष्य, अभीक्ष्य, अवेक्ष्य, उदीक्ष्य, अपेक्ष्य, उपेक्ष्य, निरीक्ष्य, परीक्ष्य, प्रेक्ष्य, वीक्ष्य, प्रतीक्ष्य, समीक्ष्य इत्यादीनि रूपाणि सन्ति। अग्रे किमस्ति, पठतु।
अग्रे भाषते, भाषित्वा सम्भाषते, सम्भाष्य। तत्र भाष् इति धातु, धातुः इति मन्ये। अत्र अपि तुदादिगणे अस्ति इति मन्ये,
न किं, किमर्थं पश्यतु, भाष् इति धातुः अस्ति, भाष इति अङ्गमस्ति, तत्र गुणकार्यस्य प्रसङ्गः नास्ति खलु, धातौ एव आनुकूल्यं नास्ति गुणकार्यं भवितुम्। इत्युक्ते धातुः भुवादिगणे अथवा तुदादिगणे अपि भवितुमर्हति, धातुकोशं पश्यामश्चेदेव वक्तुं शक्नुमः अत्र।
अस्तु,
किमर्थं चेत् अत्र गुणकार्यं भवति वा न वा इति चिन्तनं कर्तुं न शक्नुमः. किमर्थं चेत् धातुः भाष् अस्ति, भाष्योगः आयोगः ते इति रूपम् अस्ति, आत्मनेपदिरूपम् अस्ति. आ इति श्रूयते, किन्तु आ इति रूपं भुवादिगणे अपि श्रोतुं शक्नुमः, तुदादिगणे अपि श्रोतुं शक्नुमः. एतस्यां स्थित्यां धातुकोशः द्रष्टव्यः. वदतु
अग्रे. भाषित्वा भाषित्वा तत्र इडागमः अभवत्. भाषित्वा भाष् सेट् इति मन्ये, भाष् सेट् अस्ति इति मन्ये, भाषित्वा भवति. सम् इति उपसर्गः पूर्व भाष् धातु, तत्र सम्भाषते भवति, किमपि कार्यं नास्ति. अत्रापि सम्भाष्य, तत्रापि किमपि कार्यं नास्ति.
सम्भाषणं कीदृशं पदं?
लिडन्तम्.
उत्तमं. तत्र किमर्थं णत्वं?
शकार मूर्धन्यशकारः अस्ति तदर्थं णत्वं भवति तत्र.
अग्रे वदतु.
वर्तते, वर्तित्वा, परिवर्तते, परिवृत्य. तत्र वर्तते इति वृत् इति धातुः, तत्र गुणभूत्वा वर्तते इति रूपं सिद्ध्यते. वर्तित्वा वृत् इति धातु किं सेट् धातु इति मन्ये, तदर्थम् इडागमः भवति वर्तित्वा इति. अत्रापि परिवर्तते, तत्रापि गुणकार्यं भूत्वा परिवर्तते भवति. अग्रे परिवृत् परिवृत् अस्ति, तदर्थं किमपि तत्र कार्यं नास्ति, परिवृत्य इति भवति.
उत्तमं. वृत् धातोः प्रसङ्गे, धातुः तु सेट् धातुः, सेट् धातुः अस्ति इति कारणतः वर्तित्वा इति रूपं सिद्ध्यति. परिवृत्य इत्यत्र किमपि कार्यं नास्ति. परि उपसर्गपूर्वकः, वृत् धातुतः ल्यप् योजनेन परिवृत्य, तत्र किमपि काठिन्यं नास्ति. वर्तित्वा इति रूपं कथं सिद्ध्यति इति चिन्तनीयम्. वृत् इति धातौ गुणकार्यं भवितुम् आनुकूल्यम् अस्ति. वृत् धातुः रुदुपधधातुः, उपधायां ह्रस्वरुकारः अस्ति, तकारात् पूर्वं ह्रस्वरुकारः अस्ति वृत् इत्यत्र. तत्र गुणकार्यं भवितुं शक्नोति, किन्तु क्त्वाप्रत्ययः कित् प्रत्ययः खलु, गुणकार्यं निषिध्यते खलु, किन्तु अत्र वर्तित्वा इति रूपं कथं सिद्ध्यति इति प्रश्ने सति तत्र विशिष्टं सूत्रमस्ति इति चिन्तयामि. वृत् धातोः प्रसङ्गे इतोपि किं ज्ञातव्यं? वृत् धातुः अकर्मकधातुः, इत्युक्ते कर्मपदं न स्वीकरोति. एकं वाक्यं वदतु. वर्तते.
अहं वर्ते. वर्तते अस्माकम् अस्माकं वर्तमान भवति तदा. वर्गः वर्गः वर्तते इति वक्तुं शक्नुमः किल?
वर्तमान इति कीदृशं पदम्?
शानश्प्रत्ययः.
परिवर्तनं कीदृशं पदम्?
ल्युडन्तम्.
परिवर्तयति इति कीदृशं पदम्?
परिवर्तयति इति अणिजन्तम्.
साधु. अत्र परिवृत्य इति एव रूपं सिद्ध्यति. किमर्थं चेत् गुणकार्यं न भवति. परियोगः वृत्तियोगः ल्यप् परिवृत्य. किमर्थं चेत् धातुः वृत् अस्ति, किन्तु क्त्वा प्रसङ्गे इतोपि चिन्तनम् अस्ति. तदर्थमेव वर्तित्वा, वर्तित्वा इत्यस्मिन् पदे गुणकार्यमपि दृश्यते, इडागमः अपि दृश्यते, किमर्थम् इति चिन्तनं भवति. अग्रे वदतु.
कुरुते, कृत्वा, परिष्कुरुते, परिष्कृत्य. तत्र डुक्रिङ्ग् इति धातु आत्मनेपदी अस्ति, उभयपदी अस्ति धातुः, परन्तु अत्र तु आत्मनेपदी इति स्वीकृतं. सम्यक् अस्ति किं भगिनि?
उत्तमं. डुक्रिङ्ग् इत्यत्र अन्तिमवर्णः कः मूलधातौ?
ण्यकारः अस्ति.
इत्युक्ते चवर्गीय अन्तिम अनुनासिकव्यञ्जनम् अस्ति इति कारणतः स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण अयं धातुः उभयपदी भवति. स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण धातुः इणित् अस्ति चेत् उभयपदी भवति. उभयपदी इति कथं भवति? तत्र क्रियायाः फलं कर्ता प्राप्नोति चेत् आत्मनेपदी प्रत्ययान् योजयामः, क्रियायाः फलम् अपरेषां प्रति गच्छति चेत् परस्मैपदीप्रत्ययान् योजयामः. परस्मैपदीप्रत्ययस्य योजनेन करोति इति रूपं सिद्ध्यति. अत्र आत्मनेपदीप्रत्ययस्य योजनेन कुरुते इति रूपं भवति. क्रियायाः फलम् अपरेषां प्रति गच्छति चेत् परस्मैपदीरूपं सिद्ध्यति. अत्र कर्तारं प्रति गच्छति इत्यतः कुरुते इति रूपं भवति. अत्र षत्वं भवति. षत्वस्य कृते अपि बहूनि सूत्राणि सन्ति. केन सूत्रेण अत्र षत्वं भवति? साधारणतया किं चिन्तयामः, आदेशप्रत्ययोः इति सूत्रेण षत्वं भवति इति चिन्तयामः. षत्वप्रकरणे अपि बहूनि सूत्राणि सन्ति. परिष्कुरुते इत्यत्र षत्वं कुतः आगतं वदतु.
कृत्वा इत्र इत्यत्र तु किमपि कार्यं नास्ति. कृयोगः लौकिकरूपः कृ स्वीकृत्य त्वा इति प्रत्ययस्य योजनेन कृत्वा भवति. अत्र शकारस्य आगमनं कथं भवति इति अहं न जाने भगिनी. भगिनी तत्र एवमेव भवितुम् अर्हति किल? परिश् उपसर्ग इव एव अस्ति इति.
परि परि एव उपसर्ग
नैव परिश् परिश् उपसर्ग इव तत्र स्वीकृत्य कृतवन्तः किल. तथा तथैव अत्रापि परिश् इति अस्ति इति.
स्वीकृत्य इत्यत्र नूतनतया शकारः न आगतः. स्वीयोगः कृत्य, स्वी इति उपसर्गः नास्ति, उपसर्गतुल्यमस्ति इति वक्तुं शक्यते. किन्तु अत्र भिन्नं कार्यमस्ति. अत्र परि इति उपसर्गः अस्ति. परिष्कृत्य, परिष्कृत्य इत्यत्र नूतनतया शकारः आगतः. इत्युक्ते उपसर्गे शकारः नास्ति खलु. एकवारं शीर्षकं दृष्ट्वा समापयाम. अस्य पाठस्य शीर्षकं किं भवती वदतु?
अवलोक्य विश्वरूपम्. अवलोक्य विश्वरूपमिति अवलोक्य अत्र अव इति उपसर्गपूर्वम् अस्ति. धातुः कः भगिनि?
लोक लटीरूपं लोकते.
लोकते लोक इति धातुः अस्ति इति अहं न ज्ञातवती.
लोकते इति आत्मनेपदीरूपम् अस्ति. अव उपसर्गः अस्ति चेत् किं भवति?
अवलोक्य.
अवलोक्य वि अस्ति चेत्
विलोक्य.
प्रा अस्ति चेत्
प्रलोक्य.
उत्तमम्. अवलोक्य, विलोक्य, प्रलोक्य इमानि रूपाणि परिचितानि. लोकते इति लटिरूपमस्ति. धातुः आत्मनेपदी धातुः अस्ति. अव उपसर्गपूर्वकः लोकधातुतः ल्युट् योजनेन किं भवति?
अवलोकनम्.
उत्तमम्. वि अस्ति चेत्
विलोकनम्.
उत्तमम्. इमानि पदानि अपि परिचितानि पदानि. अवलोक्य विश्वरूपम् इति लिखितमस्ति. वाक्यं पूरयितुमिच्छामश्चेत् कथं वदामः?
भवान् अथवा त्वं विश्वरूपम् अवलोक्य किं तत्र कृष्णस्य यशोदायाः किं रियाक्षन्
कथा का? अत्र भगवद्गीता कथा अस्ति. परमात्मनः तत्र विश्वरूपं दृष्ट्वा
अर्जुनः अर्जुनस्य रियाक्षन् विश्व कृष्णस्य विश्वरूपं दृष्ट्वा.
उत्तमम्. अवलोक्य विश्वरूपम् इति लिखितम् अस्ति. अर्जुनः कृष्णस्य विश्वरूपम् अवलोक्य किं कृतवान् वदतु.
सः आदौ तु ज्ञातवान् यत् एषः साधारणः पुरुषः नास्ति, परन्तु असाधारणः एव अस्ति. अपि च तत्र विश्वरूपं दृष्ट्वा यदा सः ज्ञातवान् यत् सः भगवान् अस्ति इति, तदा सः किं निर्लज्जः अपि अभवत्, यतोहि कृष्णं सः सखा इति मतवान्, अपि च किं भीतः अपि अभवत् सः.
विश्वरूपदर्शनेन किम् अभवत् अथवा विश्वरूपदर्शनं पश्चात् तस्य पर्यवसानं किं, तदनन्तरं किं सञ्जातम्?
तदनन्तरं सः समर्पणं कृत्वा अहं योत्स्यामि इति उक्तवान्.
योत्स्यामि इति उक्तवान्, उत्तमम्. युद्धधातोः लृट् लकाररूपमस्ति योत्स्यामि. रोहिणी भगिनी, भवती वदतु, विश्वरूपदर्शनं कृत्वा पश्चात् किम् अभवत्, तत्र पर्यवसानं किम्?
अर्जुनः आश्चर्यचकितः भवति, तदनन्तरं किं जानामि.
युद्धं कृतवान्, तस्य मोहः नष्टः जातः. वदतु.
परन्तु सः तत्क्षणमेव समर्पणं कृत्वा अपि भक्ति भक्तेः विषयं पृष्टवान्. भक्तेः तद् गुणस्य अपि अस्ति, त्रिगुणस्य अपि च तत्सर्वम् अस्ति, पुरुषोत्तमयोगः सर्वम्.
उत्तमं. मम आशयः कः? शीर्षकं पश्यामश्चेत् शीर्षकम् असम्पूर्णमस्ति. क्त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययस्य आगमनं भवति. अत्र अवलोक्यविश्वरूपम्, अर्जुनः विश्वरूपम् अवलोक्य किं कृतवान् इति प्रश्नः. विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः जातः, अतः एव तत्र श्लोकः कः, नष्टो मोहः स्मृतिर्लब्ध्वा. वदतु.
नष्टो मोह स्मृतिर्लब्ध्वा त्वत्प्रसादात्म आत्मयाच्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनन्तव.
स्थितोऽस्मि गतसन्देहः इति उक्तवान्. स्थितः अस्मि गतसन्देहः. सुन्दर महोदय, भवान् वदतु, गतसन्देहः इत्यत्र समासः कः?
गतः सन्देहः यस्मात् सः गतसन्देहः.
उत्तमम्. कीदृशसमासः अस्ति
एतत्? गतसन्देहः यस्मात् सः, तत्र पञ्चमी तत्पुरुषसमासः, पञ्चमी बहुव्रीहिसमासः.
तत्र किं वक्तव्यं? पञ्चम्यर्थबहुव्रीहिः. पञ्चम्यर्थबहुव्रीहिः वस्तुतः तु सः समासः बहुव्रीहिसमासः एव. इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् गतः सन्देहः यस्मात् सः इति विग्रहवाक्यस्य कथनेन पञ्चम्यर्थ बहुव्रीहिसमासः. अर्जुनस्य नाम गाण्डीवी इति वदामः खलु, तत्र कीदृशप्रत्ययः अस्ति?
गाण्डीवम् अस्य अस्ति इति गाण्डीवी, गाण्डीविन् नकारान्तप्रातिपदिकम्.
नकारान्तप्रातिपदिकं गाण्डीवी. गाण्डीवधरः इति कथनेन
गाण्डीवं धरति इति गाण्डीवधरः.
उत्तमं. तत्र उपपदसमासः अस्ति.
तदेव
गाण्डीवधारी, तत्र किमस्ति?
गाण्डीवं धरति इति गाण्डीवधारी.
गाण्डीवधारी इत्यपि नकारान्तपदमेव.
गाण्डीवधारिन् इति शब्द प्रातिपदिकम्.
धनुर्धरः, तत्र किमस्ति?
धनुः धरः, धनुः धनुः वा धनुषः धरति इति धनुर्धरः.
धनुः धरति,
धनुः धरति इति धनुर्धरः.
धनुष् नपुंसकलिङ्गपदमस्ति इति कारणतः द्वितीयाविभक्तिरूपमपि
धनुः धनुषि धनुंषि, धनुः धनुषि धनुंषि.
विग्रहवाक्यं धनुः धरति, तत्र धनुः इत्यस्य कर्मसंज्ञा अस्ति, इत्युक्ते कर्मपदमस्ति.
कर्मपदम्.
जलधरः, वदतु.
जलं धरति इति जलधरः. जलानि, जलं वा जलानि वा धरति इति जलधरः.
जलधरः नाम किम्?
समुद्रः.
मेघः अपि.
मेघः अपि.
वदतु चक्रधरः.
चक्रं धरति इति चक्रधरः श्रीकृष्णः.
वज्रधरः.
वज्रं धरति इति वज्रधरः इन्द्रः.
शूलधरः.
शूलं धरति इति शूलधरः महादेवः शिवः.
हलधरः.
हलधरः. हलं धरति इति हलधरः बलरामः.
विषधरः.
विषं धरति इति विषधरः महादेवः श्रीशिवः.
भूधरः.
भुवं धरति इति भूधरः.
विद्याधरः. तत्र किमस्ति महोदय वदतु?
विद्यां धरति इति विद्याधरः.
विद्याधरी किल?
विद्याधरी का वदतु?
सरस्वतीदेवी.
अहं किं वक्तुमिच्छामि इत्युक्ते, न्यायशास्त्रपुस्तकमस्ति विद्याधरी नाम्ना. केचन जनाः न्यायशास्त्रवर्गं गच्छन्ति, ग्रन्थस्य नाम अस्ति विद्याधरी.
तत एव अहं ज्ञातवती, परन्तु समयस्य अभावेन इदानीम् अहं न गन्तुं शक्नोमि.
जटाधरः कः महोदय?
जटां धरति न जटान् धरति बहुवचनं इति जटाधरः.
पयोधरः इत्युक्ते?
पयः धरति इति पयोधरः.
सूत्रधारः वदतु.
सूत्रं धारयति इति सूत्रधारः. सूत्राणि धारयति.
सूत्रधारी. सूत्रधारी किल?
सूत्रधारी इत्यत्र नकारान्तपदमस्ति. सूत्रं धरति इति एव सूत्रधारः.
एकमेव विषयः किल, सूत्रं वा अथवा सूत्राणि वा.
अस्तु, सर्वे मिलित्वा किञ्चित् चिन्तनं कृतवन्तः. आगामिन्यां कक्षायां कथां समापयामः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.